श्री गायत्री सहस्र नाम स्तोत्रम्। नारद उवाच भगवन् सर्वधर्मज्ञा सर्वशास्त्र विशारदा श्रुतिस्मृति पुराणानां रहस्यं त्वन्मुखाच्युतं सर्वपापहरं देवा येन विद्या प्रवर्तते तेन वा ब्रह्म विज्ञानां किम्नु वा मोक्षसाधनम् ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् एहि कामुष्मिकफलम् केन वा पद्मलोचना भक्तमर्हस्य शेषे।